यदद्यजोर्जब्रवो नागाभुव्यं मित्राय वरुणाय सत्यम् भजन्ते भद्रादीतेश्च मदव प्रियासो अर्यवन् गृणन्ताः एतस्य मित्रावरुणान् जक्षा गुहे उदे सूर्यो अभिद्मन् इष्टस्य स्थातुर्जगदश्च गोपादिवर्तेषु विधिना जपश्यन् अयुक्तसप्तहरितस्वधस्थाद्याजीम् महन्ति सूर्यम् हृदाजीः धामानि मित्रावरुणा युवाकस्संयोजूते वयनीमानि दष्टे उद्वाम् रक्षासो मधुमन्दो असुरा सूर्यो अर्हच्छुक्रमर्णाः यस्मा आदित्याध्वनोरदम् मित्रो अर्जमावरुणस्वजोढाः इमे चेतारोहनृतस्य भूरेर्मित्रो अर्जमावरुणो हि सन्ति इमर्दस्य मावृधर्दुरोणे षड्मासः पुत्रा अदीतेन लब्धाः इमे मित्रो वरुणो दूनभासो चेतसम् चिक्षिदयन्ति दक्षैः अभिक्रतम् सुचेतसम्पदम् तस्थिरस्थिरम् सुपधारयन्ति इमे दिवो अनीमिषा पृथिभिरास्ति चित्वांसो अचेतसम् नयन्ति नव्राजेभिन्नद्यो गाधमस्ति पारनो अस्य वर्षन् यद्गोपा भजति निःशर्म भद्रम् मित्रो यच्छम् दिवरुणः सुदासे तस्मिन्नातोकम् धनजम् दधा नामानम् मये वशेलनम् दुरासः भवे जिम्होत्राभिर्यजे दर्भः काश्चिद्वरुणदृढः परिद्वेषोभिरर्यमावृणूरुम् सुदासे वृणापुलोकम् तस्वस्तिद्धितवेदिष्वेष्येषामधीचेन सह सासहन्ते युष्मद्भिरावेषमानादक्षस्यजन्महिनाः यो ब्रह्मणे सुमतिमाया देवायस्य धातौ परमस्य राजः श्रीक्षन्दमन्यम् भगवानो अन्यपुरुक्षराय चक्रिरे सुधातु इयम् देव पुरोहीतर्युवभ्याम् यज्ञेनो मित्रावरुणावतारि विश्वानि दुर्गापीवृतम् तिरो नो यूयम् पादस्वस्तिभिस्तदानः